एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा सर्वकारेण काष्ठमण्डपोपत्यकायाः अभ्यन्तरे त्रिभुवन विश्वविद्यालयस्य नाम्नि विद्यमानानां भूम्याः भवनानाम् अन्य चलसम्पदश्च अन्वेषणाय अनुसन्धानाय च पूर्व सचिवस्य शारदा प्रसाद त्रितालस्य नेतृत्वे अध्ययन समितिं संघटयितुं निर्णीतम् वर्तते। मन्त्री परिषदः परह्यस्तनस्य उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा विश्वविद्यालयस्य नाम्नि विद्यमानानां भूम्याः भवनादि सम्पदस्य संकलनं विधाय तेषां संरक्षणं उपयोगं व्यवस्थापनं चेत्यादि विषयान् समाविश्य प्रतिवेदनं निर्मातुं समितिः संघटिता अस्ति इति असूचयत्। समितौ नेपाल सर्वकारस्य पूर्व सचिवौ महेन्द्र कुमार थापा, जानकी वल्लभ अधिकारी च, प्राध्यापकः डाक्टर प्रेमसागर चापागाई, शिक्षा मन्त्रालयस्य उपसचिवश्च सन्ति इति मन्त्री शर्मा अज्ञापयत्। एवमेव उपवेशेन साधारण जनै प्रचलित विधेरनुसारेण अनुमति प्राप्तानि शस्त्रास्त्राणि गृहात् बहिर्न नेतुम्, यात्रानुमति प्राप्तानि शस्त्रास्त्राणि निश्चितस्थलेष् न नेतुमपि निर्णीतम् वर्तते। एवमेव मन्त्री परिषद उपवेशेन नेपाल चीन सर्वकारयोः भूकम्पीयानुसन्धान सम्बद्धं सहकारी पत्रम् मार्गाकरोत्थापन सम्बद्धां गत विक्रमवर्षीयां कार्यविधि नियमावलीं नेपाल दूरसंचार संस्थानस्य प्रबन्ध निर्देशकस्य नियुक्त्या सेवा सौविध्येन च सम्बद्धाम् एतत् विक्रमवर्षीयां प्रथम संशोधन निर्देशिकां च स्वीकर्तुं सूचना प्रविधि सांजालिक सुरक्षाया सम्बन्धे व्यवस्थायै निर्मितं विधेयकं निर्मातुं सैद्धान्तिक स्वीकृतेः प्रदानाय च निर्णीतं वर्तते। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनः, नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये मेलवार्ता सम्भूता अस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य त्रिषु नेतृषु मेलवार्ता सम्भूता वर्तते। मेलवार्तायाः अनन्तरं एमाले दलस्य अध्यक्षः ओली संक्षिप्तां प्रतिक्रियां ददत्। मेलनस्य क्रमे सामयिक राजनीतिक विषय विमृष्टमिति असूचयत्। मेलने संसदीय अद्यतः प्रारभमाणस्य आगामिनः आर्थिक वर्षस्य आयव्ययकस्य विषयेऽपि विमृष्टमासीत्। मेलने बुढा नीलकण्ठवर्तिनी नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिधस्य निवासे उपविष्टस्य प्रतिपक्षी दलानाम् उपवेशे सत्तारूढस्य एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य सहभागितायाः विषयेऽपि विमृष्टमासीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः एकीभूय आयव्ययकस्य प्रतिरक्षार्थं स्वदलस्य सांसदान् निर्दिशति। नेकपा माओवादी केन्द्रस्य संसदीय दलस्य ह्य उपविष्टे उपवेशे प्रधानमन्त्री प्रचण्डः पश्चात्तन राजनीतिकावस्थायाः संसदि प्रस्तुतस्य आयव्ययकस्य च विषयं ज्ञापयन् आयव्ययकस्य प्रतिरक्षार्थं सांसदान् निरदिशत्। प्रधानमन्त्री प्रचण्डः आयव्ययकं सन्तुलितमस्ति इति सम्यक्तया विमर्शनं विधाय अपूर्णानां विषयाणां सन्दर्भे परामर्शं च प्रदाय अग्रेसर्तुम् अन्नरूण दिदी नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो हितराज पाण्डे अज्ञापयत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल भाषते देशे सुशासनाय भ्रष्टाचारस्य दण्डहीनतायाश्च अन्तं विधेयम्। आलोक नगरवर्तिनी दलस्य केन्द्रीय कार्यालय देवशंकर पौडेलेन विरचितं लिखुसंग आत्मसमर्पण नामकं पुस्तकं लोकाय अर्पयन् अध्यक्ष नेपाल दलस्य कार्यकर्तार नेतारश्च भ्रष्टाचारस्य पंके निमग्नः सन्ति इति चिन्तां प्राकटयत्। नेता नेपालः अवदत् देशे विहितै राजनीतिकान्दोलनै प्राप्तान् अधिकारान् सुनिश्चेतुं देशं जनतां च केन्द्रे संस्थाप्य कार्यं कर्तव्यम्। उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी स्वदेशीय वस्तूनाम् उपभोगस्य वर्धनाय राष्ट्रिय जागरणस्य आवश्यकताम् निश्चिनोति। भक्तपुरस्य सल्लाघारी स्थानीय राष्ट्रिय लघुद्यमी महासंघ नेपालेन ह्यस्तनात् दिवसात् प्रारब्धाम् राष्ट्रिय लघु गारहस्थ्योद्योग व्यापार मेला प्रदर्शनीम् उद्घाटयन् मन्त्री भण्डारी सर्वकारेण शीघ्रमेव स्वदेशीय वस्तूनाम् उपभोगस्य वर्धनाय आगामिनि आर्थिक वर्षे राष्ट्रिय जागरण अभियानम् लघुद्यमशीलेषु जनेषु आपतितानां समस्यानां चर्चां विदधानः मन्त्री भण्डारी लघुद्योगिनां संरक्षणं सर्वकारेण क्रियते इत्यवोचत्। पेयजल मन्त्री राजेन्द्र कुमार राई निगदति स्तर त्रयस्य सर्वकारै जनताया स्वच्छ जलस्य पानस्य अधिकारस्य संरक्षणं विधेयम्। मोरङ जनपदस्य टंकी सिनवारी पेयजल स्वच्छता सामुदायिक संस्थया बुढ़ीगंगा पालिकाया तृतीय वडा क्षेत्रस्य नेमुआ स्थाने निर्मिताम पेयजलायोजनाम उद्घाटयन् मन्त्री राई संविधानस्य विधेश्च व्यवस्थाया अनुसारेण पेयजलस्य समस्या समाधास्यन्ते इति प्रावोचत। प्रतिनिधि सभायाः अन्तर्गतायाः अन्तर्राष्ट्रिय सम्बद्ध समित्या सप्तसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयम् अभिलेख संरक्षण सम्बद्धम् प्रथम संशोधन विधेयकम् पारितीकृतमस्ति। समितेः ह्यस्तनोपवेशे राष्ट्रिय सभातः पारितीकृत्य प्राप्तम् विधेयकमाश्रित्य सूत्रगतम् विमर्शनम् समाप्य अभिलेख संरक्षण प्रथम संशोधन विधेयकम् सर्वसम्मत्या पारितीकृतम् वर्तते। विधेयके राष्ट्रिय महत्वस्याभिलेखानां विदेशे नयनं निषिद्धं वर्तते। तादृशानां अभिलेखानां नेपालात् बहिर्नयनस्य आवश्यकतायां सत्यां मन्त्रिपरिषदः अनुमतिरनिवार्यता विहितास्ति इति च व्यवस्था वर्तते। राष्ट्रियसभायाः अन्तर्गतायाः कार्यव्यवस्था परामर्श समितेः उपवेशेन ज्येष्ठ मासान्तं यावत् उपवेशस्य कार्यतालिका निर्धारिता वर्तते। समितेः ह्यस्तनोपवेशेन ज्येष्ठ मासस्य सम्भाविता कार्यतालिका प्रकाशिता वर्तते। कार्यतालिकायाः अनुसारेण ज्येष्ठ मासस्य अवशिष्टेष् दिनेष् षड् उपवेशाः उपवेक्ष्यन्ते। उपवेशेष् आयव्ययिकस्य विभिन्नानां विधेयक सम्बद्धानां समितिनां प्रतिवेदनानां च विषयेष् विमर्शनस्य कार्यसूची निर्धारिता अस्ति। काष्ठमण्डप महानगरपालिकया महानगरस्य अभ्यन्तरे सञ्चाल्यमानाः सार्वजनिक शौचालयाः निःशुल्कं प्रयोक्तुं व्यवस्था विहिता अस्ति। ह्यः सूचनां प्रकाश्य काष्ठमण्डप महानगरेण निर्मितान् सम्प्रति सञ्चाल्यमानान् सार्वजनिक शौचालयान् निःशुल्कं प्रयोक्तुं सेवाग्राहिभ्य कथं विधमपि शुल्कं न ग्रहीतुं व्यवस्था विहिता अस्ति इति सूचितं वर्तते। निःशुल्कं सञ्चालितेभ्य सार्वजनिक शौचालयेभ्य महानगरेण आवश्यकताया अनुसारेण जनशक्तेः सामग्रीणां सम्भारस्य स्वच्छतायाश्च कृते सहयोगः प्रदास्यते इति महानगरेण ज्ञापितं वर्तते। नेपाल तैल निगमेन गतरात्रौ एकवादनात् क्रियान्वयनत्वेन शिला तैलीय पेट्रोलियम पदार्थानां मूल्यं न्यूनीकृतं वर्तते। निगमेन पेट्रोल तैलस्य प्रति लिटर मितं मूल्य रूप्यकत्रयम् डीजल मृत्तिका तैलयोः प्रति लिटर मितं मूल्य एकं रूप्यकञ्च न्यूनीकृतं वर्तते। मूल्यस्य न्यूनीभवनानन्तरम् अतः परं काष्ठमण्डप पोखरा दीपायल नगरेषु पेट्रोल तैलस्य मूल्यम् अष्टाषष्ट्युत्तरशतम् डीजल मृत्तिका तैलयोः प्रति लिटर मितं मूल्यं त्रिपञ्चाशदधिकशतं च रूप्यकाणि प्राप्तानि सन्ति। द्वितीय वर्गस्य अन्तर्गतं सुर्खेत दाङ जनपदे पेट्रोल तैलस्य सप्तषष्ट्यधिकशतम् डीजल मृत्तिका तैलयोः द्वापञ्चाशदधिकशतं च रूप्यकाणि प्राप्तानि सन्ति। प्रथम वर्गस्य अन्तर्गतं चाराली विराटनगर जनकपुर अमलेखगंज भलवारी नेपालगंज धनगढ़ी वीरगंज स्थानेषु पेट्रोल तैलस्य प्रति लिटर मितं मूल्यं पञ्चषष्ट्यधिकशतम् पञ्चाशत् पैसा च डीजल मृत्तिका तैलयोः प्रति लिटर मितं मूल्यं पञ्चाशदुत्तरशतम् रूप्यकाणि पञ्चाशत् पैसा च प्राप्तं वर्तते। विमानेन्धनस्य पाचनेन्धनस्य च मूल्यं पूर्ववत् वर्तते इति समाचारः।